प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनं, तृतीये नार्जितं पुण्यं, चतुर्थे किं करिष्यसि। नमो नमः प्रियाः श्रोतारः। संस्कृत साप्ताहिकी इत्येतस्मिन् कार्यक्रमे भवतां सर्वेषां हार्दिकम् अभिनन्दनं स्वागतं च। अहं ऋचा झा कार्यक्रमस्य उद्घोषिका उपस्थितास्मि नवमङ्कम् आदाय। अयि श्रोतृवृन्दाः आगच्छन्तु, सर्वप्रथमं शृण्मः अस्माकं सहयोगिना पुनीत त्रिपाठिना प्रस्तुतम् अद्यतनं सुभाषितम्।
सज्जनस्य स्थितिर्लोके मधुरनिम्बवत् भवे, क्षिप्यते सूपशाकादौ भुक्तौ निष्कास्यते पुरा। अर्थात इस संसार में सज्जनों की स्थिति मीठे नीम की तरह होती है। दाल सब्जी आदि व्यंजनों में सुगंधि हेतु सबसे पहले इनको डाला जाता है, लेकिन भोजन ग्रहण करने के समय सबसे पहले इसी मधुर नींब को बाहर निकाल कर फेंक दिया जाता है।
अहो सत्यम्। प्रिय मित्राणि, अग्रे सरामः सम्प्रति प्रसंग प्रभागं प्रति, यत्र सुमधुर स्वरेण शिवध्यानम् इति प्रस्तौति अस्मदीया सहयोगिनी रिंकू जोशी।
डिम 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 कत डिम्ब डिम्ब डमरूपाणौ सदा यस्य वै, फुं 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 कत सर्प जाल हृदयं गम गम च घंटारवम्, वं 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 कत वंब वंब वहनं कारुण्य पुण्यात् परम्, भं 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 कत भंब भंब नयनं ध्यायेत् शिवं शंकरम्। यावत्तो यधरा धरा धर धरा धारा धरा भूधरा, यावच्चारु सुचारु चारु चमरं चामीकरं चामरं, यावत्रावण राम राम रमणं रामायणे श्रूयतां, तावत् भोग विभोग भोगमतुलं योगायते नित्यसह। यस्याग्रे द्राट द्राट द्रुट द्रुटममलं टं ट टं ट टं ट टं, तैलं तैलं तु तैलं खुकु खुकु खुकुमं खंख खंख सखंखम्, डंस डंस डु डंस डु हि चकितं भूपकं भूयनालम्, ध्यायस्ते विप्रगाहे सवसति सवलः पातु वः चन्द्रचूडः, गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितं, खट्वांग च सितं सितश्च वृषभः कर्णे सिते कुण्डले, गंगा फने सिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि, सोयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा।
अयि संस्कृत सेवारताः प्रियाः श्रोतृवर्याः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति अस्मदीया सहयोगिनी मुदिता।
प्रधानमंत्री नरेन्द्र मोदी गते मंगलवासरे दिल्ली देहरादून एक्सप्रेसवे इत्येतस्य राजमार्गस्य उद्घाटनम् अकरोत्। अनेन राजमार्गेण उभयोः नगरयोः मध्ये यात्रा समयः सार्ध द्विहोरात्मकः भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः गुरुवासरे महाराष्ट्रस्य वर्धा स्थितस्य महात्मा गांधी अन्तर्राष्ट्रिय हिन्दी विश्वविद्यालयस्य दीक्षांत समारोहं सम्बोधितवती। अत्रावसरे राष्ट्रपति वर्या विद्यार्थिभ्यः उपाधिपराणि प्रमाणपत्राणि अपि दत्तवती। अमेरिका ईरान देशयोः मध्ये युद्धः सततं प्रवर्तते। देशयोः मध्ये संघर्षावसानार्थं पाकिस्तान देशेन आयोजितस्य मध्यस्थतापरस्य संवादस्य अनन्तरमपि निष्कर्षः नैव प्राप्तं गतः। संसदि महिला आरक्षण विधेयके परिचर्चा जायते। एतत् विधेयकम् आलक्ष्य विपक्षिभिः साहमत्यं नैव प्रकाश्यते। धन्यवादः।
सम्मान्याः श्रोतारः, साप्ताहिकी वार्तानन्तरं पुनः उपस्थिताहं ज्ञानविज्ञान प्रभागान्तर्गतम् एकं साक्षात्कारम् आदाय। अस्माभिस्साकं संवादाय उपस्थितो अस्ति अस्माकं सहयोगिना सुरेश चन्द्र शर्मणा सह संस्कृत भारत्याः अखिल भारत प्रचार प्रमुखः श्रीशः देव पुजारी वर्यः।
अयम् निजः परोवेति गणना लघुचेतसाम् उदार चरितानां तु वसुधैव कुटुम्बकम्। प्रियाः सुरभारती समुपासकाः श्रोतारः, अतीव हर्षस्य विषयः यत् आकाशवाण्याम् अस्माभिः सह संवादाय अद्य समुपस्थिताः सन्ति संस्कृत भारती इत्येतस्याः संस्थायाः अखिल भारत प्रचार प्रमुखाः श्रीमन्तः श्रीशः देव पुजारी महोदयाः। देव पुजारी महोदयानां हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहम् सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतम् च वर्तामहे।
धन्यवादः
महोदयाः। संवाद प्रभागस्य एतस्य सर्वप्रथमे प्रश्नः यत् यथा कथ्यते संस्कृत भाषा देवभाषा सर्वासां भाषाणां च जननी इति विषये श्रोतारः भवतां विचारान् ज्ञातुमिच्छन्ति।
अत्र तर्कद्वयम् अस्ति। सर्वैः कथा श्रुता स्यात् संस्कृतस्य वर्णमाला शंकरस्य डमरूतः प्रवृत्ता इति काचित् कथा।
नितावसाने नटराजराजौ
तत्र शिवस्य डमरूतः निनादतः ये यानि सूत्राणि निर्गतानि तानि एव संस्कृतस्य वर्णमाला रूपेण प्रचारितानि।
महेश्वरसूत्राणि
इति तस्य नाम। अतः महेश्वरस्य निनादतः सर्वं प्रसृतम् इति कारणेन देवभाषा इति कथ्यते।
समीचीनम्।
द्वितीयः तर्कः वेदानां भाषा संस्कृतम् इति। अतः वेदाः तु न रचिताः केनापि, ते तु द्रष्टाः, अतः मन्त्रद्रष्टा ऋषयः इति कथ्यन्ते। अतः संस्कृतं केनापि न रचितं तत् प्राप्तम् इति कारणेन देवभाषा इति वक्तुं शक्यते।
दर्शनेन प्राप्तं वर्तते।
दर्शनेन अथवा ज्ञानेन वा अनुभूतिद्वारा वा सर्वं प्राप्तम् अस्ति इति मान्यता वर्तते।
समीचीनं महोदयाः। सम्प्रति प्रश्नः यत् आधुनिके भौतिके वैज्ञानिके च युगे संस्कृतभाषा कथं केन प्रकारेण च युवभ्यः लाभप्रदा विशेषतः वृत्त्यवसर इत्यादि दृष्ट्या इत्येतद् विषये भवतां विचाराः।
कमपि विषयं पठन्ति जनाः स्नातकाः भवन्ति, अनन्तरं वृत्तिनिमित्तं प्रतियोगिता परीक्षां लिखन्ति। अतः तत्र कुत्रापि संस्कृतं पठितम् इति कारणेन परीक्षां लेखितुं न शक्यते इति कुत्रापि लिखितं नास्ति। अतः कमपि विषयं वा पठतु, स्नातकः भवतु, तदा एव प्रतियोगी परीक्षां लेखितुं शक्यते।
सम्यक्।
संस्कृतं पठन्तु, परीक्षां लिखन्तु, वृत्तिं प्राप्नुवन्ति। IAS वा भवतु, IPS वा भवतु, या कापि परीक्षा भवतु, तत्र संस्कृतं पठितम् इति कारणेन निषेधः इति कुत्रापि नास्ति।
तत्र सर्वत्र संस्कृतभाषायां वृत्त्यवसराः सन्ति।
सन्ति एव। यथा वाणिज्यं पठन्ति, विज्ञानं पठन्ति, तथापि साक्षात् वृत्तिः तु नास्ति, तथैव अस्ति। अतः कलासङ्कायस्य विषयाः तत्र संस्कृतम् अपि आगच्छति, तान् पठित्वा अपि परीक्षां लेखितुं शक्यते।
सामान्यजनाः कथयन्ति केवलम् अध्यापनक्षेत्रे एव अवसराः सन्ति इत्येतद् विषये।
कुत्रापि अवसरः अस्ति, यथा रेल विभागे वा भवतु, वित्तकोषे वा भवतु, अथवा पत्रालय विभागे वा भवतु, सर्वत्र प्रतियोगी परीक्षां लिखित्वा एव प्रवेशः अस्ति। अतः संस्कृतं पठित्वा स्नातकः भूत्वा प्रतियोगी परीक्षा लेखनीया इति एव मार्गः।
समीचीनं महोदयाः। सम्प्रति प्रश्नः वर्तते यत् संस्कृतभाषायाः प्रचाराय प्रसाराय च देशे कानि कानि प्रमुखानि संस्थानानि सम्प्रति प्रचाल्यन्ते।
17 विश्वविद्यालयाः सन्ति, पुनः संस्कृतभारती, संस्कृतसंवर्धनप्रतिष्ठानम् इत्यादि संस्थाः अपि सन्ति। संस्कृतभारती इति तु वैश्विकं सङ्घटनम्, तादृशं वैश्विकं सङ्घटनम् अन्यत् नास्ति। संस्कृतभारत्याः कार्यकर्तारः उपचतुस्सहस्रस्थानेषु भारते कक्षां चालयन्ति। सर्वप्रकारकाः जनाः बालतः आरभ्य वृद्धाः पर्यन्तम् आगच्छन्ति, पठन्ति। महिलाः अपि भवन्ति, पुरुषाः अपि भवन्ति।
सर्वेषां कृते
तत्र काचित् अर्हता नास्ति। ये निरक्षराः ते अपि आगन्तुम् अर्हन्ति, तथा अस्माभिः प्रयोगाः कृताः सन्ति, ते सफलाः अपि
भवन्ति इति। समीचीनं महोदयाः, भवद्भिः सम्यक् उक्तम्। सम्प्रति यथा भवद्भिः उक्तं यत् संस्कृतभाषायाः प्रचार प्रसारदिशि संस्कृत भारती इत्येषा संस्था महत्वपूर्णं स्थानं संधारयति तर्हि वयं ज्ञातुम् इच्छामः संस्कृत भारती विषये। कृपया संस्कृत भारती विषये किञ्चित् ज्ञापयन्तु। संस्कृत भारत्याः के प्रकल्पाः सन्ति तेषां समीक्षां विषये वयं ज्ञातुम् इच्छामः।
संस्कृत भारत्याः कार्यविभागाः दश सन्ति, पुनः आयामाः पञ्च सन्ति, प्रकल्पाः अपि सन्ति। प्रकल्पेषु अन्यतमः अस्ति संवादशाला। देहली काशी इति स्थानद्वये एषा संवादशाला प्रचलति। तत्र विश्वतः ये केऽपि संवादं कर्तुम् इच्छन्ति, भाषणं कर्तुम् इच्छन्ति संस्कृतेन, वार्तालापं कर्तुम् इच्छन्ति, ते सर्वे विश्वतः आगत्य संवादशालायां 14 दिनानि यावत् स्थित्वा भाषाध्ययनं कुर्वन्ति। ये पूर्वं न वदन्ति स्म ते 14 दिनानन्तरं वदन् गच्छन्ति। मम एव उदाहरणं तत्र अस्ति।
पूर्वं ज्ञातुम् इच्छामः,
अहमपि संस्कृतक्षेत्रीयः न आसम्। मम शिक्षणं तु अभियन्त्रणशास्त्रस्य अर्थशास्त्रस्य च जातम्। संस्कृतं तदा एव ज्ञातवान् यदा संस्कृतभारतीं प्रविष्टवान्। संस्कृतभारत्याः प्रवेशानन्तरम् अहमपि संवादशालायां गत्वा 14 दिनानि स्थित्वा अनन्तरं सम्भाषणं कुर्वन् बहिरागतवान्। तादृशी स्थितिः बहूनां भवति। एषः एकः अन्यतम प्रकल्पः। द्वितीयः प्रकल्पः बेङ्गलूरुतः सञ्चाल्यमानः अस्ति। 95 संस्कृतमाध्यमेन मासिकी पत्रिका प्रकाशिता भवति। सम्भाषण सन्देशः इति तस्याः नाम।
सम्भाषण सन्देश इति नाम्ना
तत्र सा पत्रिका इदानीं पर्यन्तं निरन्तररीत्या प्रकाशिता भवति।
प्रत्येकस्मिन् मासे
तस्याः उपलब्धता इदानीम् आडियो पत्रिका रूपेण अपि अस्ति। सम्पूर्णे विश्वे संस्कृतपत्रिका आडियो रूपेण प्रथमा अस्ति।
समीचीनं महोदयाः, भवद्भिः सम्यक् उक्तम्। सम्प्रति वयं ज्ञातुम् इच्छामः, यथा वयं जानीमः यत् श्वः संस्कृतभारती इत्येतस्याः संस्थायाः नवदेहल्यां मुख्यालय उद्घाटनं भविष्यति। तत्र उद्घाटनविषये अपि वयं किञ्चित् ज्ञातुम् इच्छामः।
संस्कृतभारत्याः सङ्घटनस्य केन्द्रीयः कार्यालयः अनिवार्यः आसीत् इति कारणेन अस्माभिः आवेदनं कृतं। केन्द्रसर्वकारस्य कृपा जाता, भूमिः लब्धा। दीनदयाल उपाध्याय मार्गे बहूनां सङ्घटनानां संस्थानां च भूखण्डाः सन्ति। तत्र अस्माकमपि भूखण्डः अस्ति। तत्र अस्माभिः बहु परिश्रमेण धनम् एकत्रितं कृत्वा समाजतः इदानीं भवनं निर्मितम् अस्ति। तस्य लोकार्पणं वा प्रवेशः 20 प्रातःकाले 7:15 भविष्यति। प्रवेशसमये राष्ट्रियस्वयंसेवकसङ्घस्य परमपूजनीय सरसङ्घचालकः उपस्थितः भविष्यति।
सर्वेषां संस्कृतानुरागिणां कृते हर्षोल्लासविषयो वर्तते तत्र।
सर्वे प्रसन्नाः, कारणं ततः सम्पूर्णसङ्घटनस्य कार्याणि सञ्चाल्यते अग्रे। अतः एकं तादृशं केन्द्रम् अनिवार्यम् आसीत्।
बहु समीचीनं महोदयाः। प्रभागस्य एतस्य अन्तिमे वयं ज्ञातुम् इच्छामः भवतां विचारान् यत् संस्कृतभाषाविषये छात्रेभ्यः, युवभ्यः, शिक्षार्थिभ्यः, शोधार्थिभ्यः, समाजाय च भवतां कः सन्देशः?
ये पठन्ति साम्प्रतं ते केवलम् अर्थार्जनाय पठन्ति।
सम्प्रति समये
यदि येषां पठनं समाप्तं ते अपि यदि संस्कृतं पठिष्यन्ति तर्हि जीवनस्य लक्ष्यं प्राप्नुवन्ति। यथा सुभाषितम् अस्ति, परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः, परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम्। अतः प्रयोजनं किं जीवनस्य? तु परोपकारः इति तत्र स्पष्टतया उक्तमस्ति। साम्प्रतं ये युवानः तेषां जीवनस्य लक्ष्यं केवलम् उपभोगः इति एव अस्ति। ततोऽपि ऊर्ध्वं किमपि शक्यते इति मातापितरौ अपि न वदतः। पुनः अध्यापकाः अपि तथा लक्ष्यं न निर्धारयन्ति। ते केवलम् अहम् अभियन्ता भविष्यामि, अहं चिकित्सकः भविष्यामि इति तावदेव चिन्तयन्ति। तेषां चिन्तनस्य विकासः एव तावान् अस्ति।
महोदयाः, संस्कृत भाषा विषये, संस्कृत भारती विषये च भवद्भिः ये विचाराः अत्र प्रकटिताः सन्ति तेभ्यः वयं पौनः पुन्येन आकाशवाणी पक्षतः भवद्भ्यः हार्दाः धन्यवादाः, सादरं प्रणामाः, नमो नमः।
धन्यवादः।
जयतु भारतं, जयतु संस्कृतम्।
मन्येहं यत् संवादानेन भवन्तः सर्वे निश्चयमेव लाभान्वितं भविष्यन्ति। अयि सुधयः श्रोतारः, आगच्छन्तु संस्कृत दिग्दर्शन प्रभागे, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी साधना शर्मा।
भारत सर्वकारस्य ज्ञान भारतम् नाम्ना राष्ट्रिय डिजिटल भण्डार परियोजनायाः अन्तर्गतं वृन्दावन रिसर्च इन्स्टिट्यूट् इदं पञ्चवर्षीय केन्द्र रूपेण नाम निर्दिष्टम्। अस्मिन् सर्वेक्षणं सूचीकरणं संरक्षणं लिपिभाषा प्रौद्योगिकीकरणं तथा डिजिटलीकरणं एतेषु चतुर्षु क्षेत्रेषु कार्यं भविष्यति। सर्वे एंड कैटलॉग एक्सपर्ट पदाय आवेदनानि अत्र आमन्त्रितानि। एमिटी विश्वविद्यालये राष्ट्रिय संस्कृत विश्वविद्यालये तिरुपतौ च शैक्षणिक वर्षस्य प्रवेशाः उद्घाटिताः। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये द्वाविंशति तमे दिनांके सीनेट सभा आयोज्यते, ततः पूर्वं विंशति दिनांके सिंडिकेट सभा आयोजयिष्यते। सीनेट सभायाम् अध्यक्षतां कुलाधिपतिः सह राज्यपालः करिष्यति।
अयि प्रियाः बाल श्रोतारः, अद्य बालवल्लरी प्रभागे सुषमा कुमारी प्रस्तौति नीतिपरक श्लोकानि।
बालाः, अद्य वयं नीतिश्लोकाः पठामः। वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः। षड् दोषः पुरुषेणेह हातव्या भूतिमिच्छता निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता। अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति विद्या तपोभ्याम भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति। उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणं वर्षं तद्भारतं नाम भारती यत्र सन्ततिः। जलबिन्दुनिपातेन क्रमशः पूर्यते घटः सहेतुः सर्वविद्यानां धर्मस्य च धनस्य च। यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति तस्य दिवाकर किरणैः नलिनीदलमिव विस्तारिता बुद्धिः। प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः तस्मात् तदेव वक्तव्यं वचने का दरिद्रता। आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः नास्ति उद्यम समो बन्धुः कृत्वा यं नावसीदति।
प्रियाः श्रोतारः, अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतमिति, यत्र ललितमोहन तिवारी श्रावयति संस्कृत हिन्दी उड़िया भाषासु कानिचन वाक्यानि।
प्रथमं वाक्यमस्ति, डॉक्टर भीमराव अम्बेडकर भारतस्य महान नेता तथा समाज सुधारक च आसीत्। डॉक्टर भीमराव अम्बेडकर भारत के महान नेता और समाज सुधारक थे। उड़िया भाषा में डॉक्टर भीमराव अम्बेडकर भारत रा महान नेता एवं समाज सुधारक थिले। द्वितीयं वाक्यमस्ति, तस्य जन्म 91-अष्टादशशततम वर्षस्य अप्रैल मासे चतुर्दशे दिवसे अभवत्। उनका जन्म 14 अप्रैल 1891 को हुआ था। उड़िया भाषा में ताकर जन्म 14 अप्रैल 1891 रे हुई थिला। तृतीयं वाक्यमस्ति, सह भारतीय संविधानस्य निर्माता आसीत। वे भारतीय संविधान के निर्माता थे। उड़िया भाषा में से भारतीय संविधान रा निर्माता थिले। चतुर्थं वाक्यमस्ति, सह समाजे समतायाः न्यायस्य च कृते कार्यं कृतवान्। उन्होंने समाज में समानता और न्याय के लिए कार्य किया। उड़िया भाषा में से समाजरे समानता एवं न्याय पाएं काम करी थिले। पंचमं वाक्यमस्ति, सह शिक्षायाः महत्वम् अत्यधिकं मन्यते स्म। वे शिक्षा के महत्व को बहुत मानते थे। उड़िया भाषा में से शिक्षा र गुरुत्व को बहुत मानु थिले।
संस्कृत हिंदी भाषाभ्याम सह उड़िया भाषायाः अयम् संगमः स्याद् नूनम् आह्लादकरः ज्ञानवर्धकश्च। सहृदयाः श्रोतारः, संस्कृत साप्ताहिकी इति कार्यक्रम विषये भवन्तः स्वकीयान् विचारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् अन्तर्जालीय सम्पर्क सूत्रमस्ति nsdsanskrit@gmail.com इति। अयि श्रोतृजनाः, अधुना तु कालः समायातः प्रस्थानवेलायाः। अग्रिमे सप्ताहे अस्मिन् एव काले अभिनवम् एकम् अङ्कमादाय पुनः उपस्थास्यामहे। भवेत् तावत् मङ्गलम्।